श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ पञ्चदशोऽध्यायः श्रीभगवानुवाच जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः उद्धव उवाच कया धारणया कास्वित् कथौ स्वित् सिद्धिरच्युत कतिवा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् श्रीभगवानुवाच सिद्धयोष्टादश प्रोक्ता धारणायोगपारगैः तासामष्टौ मत्प्रधानादशैव गुणहेतवः अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति एतामे सिद्धय सौम्य अष्टावोत्पत्तिकामताः अनूर्मिमत्वं देहेऽस्मिन् दूरश्रवणदर्शनम् मनोजवक् कामरूपं परकाय प्रवेशनम् स्वच्छन्दमृत्युर्दीवानां सह क्रीडानुदर्शनम् यथा सङ्कल्पसंसिद्धिराज्ञा प्रतिहता गतिः त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता अग्न्यर्काम्बुविषादीनां प्रतिष्ठम्भो पराजयः एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः यया धारणया या स्याद्यथा वा स्यान्निबोध मे भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः अणिमानमवाप्नोति तन्मात्रोपासको मम महत्यात्मन्मयि परे यथा संस्थं मनो दधत् महिमानमवाप्नोति भूतानाय च पृथक् पृथक् परमाणुमये चित्तं भूतानामैरञ्जयन् कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् धारयन् मय्यहं तत्त्वे मनोवैकारिकेऽखिलम् सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः महत्यात्मनि सूत्रे धारयेन्मयि मानसम् प्राकाम्यं पारमीष्ट्यं मे विन्दते व्यक्तजन्मनः विष्णौ त्र्यधीश्वरे चित्तं धारयेत् कालविग्रहे स ईषित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते मनोमय्यादधद्योगी मद्धर्मा वशितामियात् निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः परमानन्दमाप्नोति यत्र कामो वसीयते श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि धारयैच्छ्वेततां याति षडूर्मिरहितो नरः मय्याकाशात्मनि प्राणी मनसा घोषमुद्वहन् तत्रोपलब्धा भूतानां हंसोवाच शृणोत्यसौ चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि मां तत्र मनसाध्यायन् विश्वं पश्यति सूक्ष्मदृक् मनोमयि सुसंयोज्य देहं तदनुवायुना मद्धारणानुभावेन तत्रात्मा यत्र वै मनः यदा मन उपादाय यद्यद्रूपं बुभूषति तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् पार्श्व्यापीड्यगुदं प्राणं मृदुरकण्ठमूर्धसु आरोप्य ब्रह्मरन्ध्रेण ब्रह्मणि त्वोत्सृजेतनुम् विहरिष्यन् सुरा क्रीडे मत्स्थं सत्त्वं विभावयेत् विमाने नोपतिष्ठन्ति सत्त्ववृत्ति सुरस्त्रियः यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान् मयि सत्ये मनो युज्यौस्तथा तत्समुपाश्नुते यो वै मद्भावमापन्न ईषितुर्वशितुः पुमान् कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणा तस्य त्रैकालिकी बुद्धिर्जन्म मृत्युपब्रूहिता अज्ञादिभिर्न हन्येत मुनिर्योगमयं वपुः मद्योगश्रान्तचित्तस्य यादसामुदकं यथा मद्विभूतिरभिध्यायन् श्रीवत्शास्त्रविभूषिता ध्वजातपत्रव्यजनैः स भवेदपराजितः उपासकस्य मामेवं योगधारणया मुनेः सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः मद्धारणान्धारयत कासा सिद्धिः सुदुर्लभा अन्तरायान् वदन्ति तायुजतो योगमुत्तमम् मया सम्पद्यमानस्य कालक्षपणहेतवः जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः योगेनाप्नोति ताः सर्वानान्यैर्योगगतिं व्रजेत् सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः अहं योगस्य सांख्यस्य धर्मस्य ब्रह्मवादिनाम् अहमात्मान्तरो वायो नावृतः सर्वदेहिनां यथा भूतानि भूतेषु बहिरन्तस्वयं तथा इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पञ्चदशोऽध्यायः सर्वं श्रीकृष्णार्पणमस्तु।